एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणा केपी शर्मा ओलिना संक्रमणकालिका न्याय निरूपण प्रसंगे द्वन्द्वकाले विहितेषु अमानवीयेषु जघन्यापराधेषु च क्षमां दातुं न शक्यते इति स्पष्टीकृतं वर्तते। काष्ठमण्डपे आयोजितं नेपाल भूतपूर्व सैनिक प्रहरी संगठनस्य षष्ठम् महाधिवेशनम् ह्य समुद्घाटयन् प्रधानमन्त्री ओली सत्यनिरूपण मेलायोगस्य विलुप्त जनान्वेषणायोगस्य च माध्यमेन पीड़ितजनेभ्य न्याय प्रदानत्वेन कार्य सम्पादनम् भविष्यतीति समस्पष्टयत। कार्यक्रमे एतयोः आयोगयोः संगठनाय विलम्बः न भविष्यतीति चर्चयन् प्रधानमन्त्री ओली अधिनायकवादं पराजित्य देश लोकतान्त्रिक प्रणाल्यां प्रविष्टोऽस्तीत्यतः केनापि व्याजेन विहितानि हत्या हिंसाजनकानि संविधान विपरीतानि गणतन्त्र विरोधिनी च कार्याणि स्वीकार्याणि न भवन्तीति स्पष्टीकृतवान्। प्रधानमन्त्री ओली विविधतायुक्ते देशे सामाजिक सद्भावेन सहिता राष्ट्रिय एकता आवश्यकी अस्तीति चर्चयन् नेकपा एमाले दलेन तस्य नेतृत्वं गृहीतम् अस्तीति अकथयत। तदवसरे प्रधानमन्त्रिणा ओलिना लोकतन्त्र दिवसस्य अवसरे अस्यैव वैशाख मासस्य आगामिनी एकादश दिवसे यूनां सम्मेलनमायोज्य जनतायाः अधिकाराणां विकासस्य पक्षे उत्सवं समायोजितुमपि अनुरोधम् अस्ति। नेपाली कांग्रेस दलेन सत्ता गठबन्धने विद्यमानै दलैस समन्वयं विधाय सर्वकारेण स्वस्य गतिः वर्धनीया भवतीति निष्कर्ष प्रकाशितोऽस्ति। कांग्रेस दलस्य सभापतेः शेरबहादुर देवाभिधस्य बुढानीलकण्ठवर्तिनी निवासे ह्य उपविष्टेन कांग्रेस दलस्य पदाधिकारिणां पूर्व पदाधिकारिणां च उपवेशेन सत्ता गठबन्धनेषु समन्वयस्य सन्तोलनस्य च आधारेण सर्वकारेण विकासस्य गतिः वर्धनीया इति निष्कर्षः प्रकाशितोऽस्तीति दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत असूचयत। गठबन्धन सर्वकारः एकस्यैव दलस्य न भवतीति हेतोश्च परस्परं समन्वयाय सहकार्याय च उपवेशेन बलं दत्तमस्तीति च प्रवक्ता महत असूचयत। प्रतिपक्षी दलस्य नेतुः पुष्पकमलदाहाल प्रचण्डस्य सर्वकारस्य विघटनं शीघ्रमेव भविष्यतीति कथनं स्वाभाविकमस्ति, परन्तु तस्य कथनेनैव सर्वकारस्य संघटनं विघटनं वा न भविष्यति इत्यत्र सत्यता नास्तीति च प्रवक्ता महत स्पष्टीकृतवान्। उपवेशे आगामिनि केन्द्रीय समितेः उपवेशे प्रस्तुष्यमाणानां प्रस्तावानां शिक्षकाणाम् आन्दोलनस्य भातृसंगठनानां निर्वाचनस्य च विषयेषु अन्येषु सामयिक विषयेषु च विमृष्टमिति प्रवक्ता महत अज्ञापयत्। राष्ट्रिय परीक्षा समित्या द्वादश कक्षाया परीक्षाया संचालनाय एसईई परीक्षाया उत्तर पुस्तिकानां परीक्षणाय च सहयोक्तुं शिक्षकाः अनुरुद्धाः वर्तन्ते। स्वस्य वृत्तिगत हित सुरक्षया सहैव विद्यार्थिनां भविष्यं प्राथमिकतायाः संवेदनशील पक्षं च आत्मसात् कृत्य वृत्तिगतोत्तर दायित्वस्य रूपेण उत्तर पुस्तिकानां परीक्षणाय द्वादश कक्षायाः परीक्षायाः संचालनाय च सहयोक्तुं समितेः अध्यक्षेण डाक्टर महाश्रम शर्मणा ह्य प्रकाशिते अनुरोध पत्रे सर्वे शिक्षकाः अनुरुद्धाः वर्तन्ते। द्वादश कक्षायाः परीक्षा अस्यैव वैशाखस्य एकादशात् दिवसात् प्रारब्धमाणो वर्तते। स्व शनिश्चरवासरे परस्व रविवासरे च आराष्टम द्वाविंशत्ये लक्षेव्य बाल बालिकाभ्य राष्ट्रिय ए श्रेण्या पोषक तत्व पायन कार्यक्रमस्य अन्तर्गतम् स्वास्थ्य जनसंख्या मन्त्रालयेन भिटामिन ए नामकं पोषण तत्वं पायमानं वर्तते। स्वास्थ्य सेवा विभागस्य अनुसारेण षड्मासेभ्य ऊनषष्ठे मास पार्यन्तिकेभ्य द्वाविंशत्यै बालबालिकाभ्य ए नामकं पोषण तत्वं पायमानं वर्तते। तस्मिन्नेव च दिने एकवर्षतः पञ्चवर्षावधिकेभ्य आसन्नैकोनविंशत्यै लक्षेभ्यः बालबालिकाभ्यः युका रोगस्य औषधं च प्रदास्यते। प्रतिवर्षं कार्तिक वैशाख मासयोः भिटामिन ए नामकं पोषण तत्वं युका रोगस्य औषधं च बालबालिकाभ्यः निःशुल्कं पायनस्य व्यवस्था सर्वकारेण विधीयमाना वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमला दाहाल प्रचण्ड निगदति राजनीतिक स्थिरतायै संविधान संशोधनम् आवश्यकम् वर्तते। ह्य भैरवस्थाने प्रेस सेन्टर नेपालस्य रूपन्देही जनपद शाखया आयोजिते पत्रकार सम्मेलने अध्यक्ष प्रचण्ड नेकपा एमाले दलेन नेपाली कांग्रेस दलेन च सर्वकारस्य संघटनस्य समये संविधान संशोधनस्य विषय उत्थापित सन्नपि सम्प्रति अभिरूचि प्रकटिता नास्तीति आरोपयत। तदवसरे अध्यक्ष प्रचण्ड गत फाल्गुनस्य एकादश दिवसात् झापा जनपदात् प्रारब्धस्य तराई मधेश जागरणाभियानस्य अन्तर्गताया हुलाकी सहायक मार्गस्य यात्राया क्रमे कृषकाणां समस्यां होतात्म विलोपित जनानां परिवाराणां समस्यां च ज्ञातुम् अवसर प्राप्तोऽस्तीति अवोचत। आगामिना आर्थिक वर्षस्य कृते आयव्ययस्य निर्माणस्य विषये अर्थमन्त्रालयेन पूर्वार्थमन्त्रिभिः परामर्शनम् गृहीतम् वर्तते। ह्य अर्थमन्त्रालये विहिते विमर्शने क्रियान्वयन योग्यम् यथार्थपरकम् च आयव्ययकम् आनेतुम् पूर्वार्थमन्त्रिभिः परामृष्टम् वर्तते। विमर्शने पूर्वार्थमन्त्रिणा डाक्टर बाबुराम भट्टराई, डाक्टर प्रकाश शरण महत, वर्षमान पुन, जनार्दन शर्मा, ज्ञानेन्द्र बहादुर कार्की, शंकर कोइराला, डाक्टर प्रकाश चन्द्र लोहनी, डाक्टर रूप ज्योति च सहभागिनः आसन्। सर्वकारेण आयोडिन तत्वयुतस्य लवणस्य उत्पादनेन विक्रय वितरणाभ्यां च सह सम्बद्ध अधिनियम क्रियान्वितो वर्तते। अधिनियमस्य क्रियान्वयन सहैव स्वास्थ्य मन्त्रालयेन एतत्पूर्वं विहिते अनुसन्धाने बालबालिकासु आधिक्येन प्राप्तस्य आयोडिन नामकस्य तत्वस्य ततः सृष्टायाः स्वास्थ्य समस्यायाश्च समाधानाय विधिगत मार्गः समुद्घाटितो वर्तते। विगतकालिक मापदण्डस्य कारणेन बालबालिकासु आवश्यकतातः अधिकमात्रायाम् आयोडिन तत्वस्य प्राप्ते कारणेन गभीरा स्वास्थ्य समस्या प्राप्तेति मन्त्रालयेन दशकात् पूर्वं विहितेन अनुसन्धानेन दृष्टमिति स्वास्थ्य मन्त्रालयस्य स्वास्थ्य सेवा विभागस्य पोषण शाखा प्रमुख लीला विक्रम थापा असूचयत। चितवनवर्तिना दुग्धोद्योगेन एकवर्षस्य अवधौ एक कोटि पञ्चदश लक्षाणि चेति लिटरमितस्य दुग्धस्य प्रशोधनम् कृत्वा दुग्धचूर्णम् उत्पादितमस्ति। कृषकेभ्य दुग्ध संकलनम् कृत्वा दुग्धात् गतवर्षस्य चैत्रमासान्तम् यावत् एतावत् परिमाणे दुग्धचूर्णम् उत्पादितमस्ति। इति समाचाराः।